नमस्सर्वेभ्यः अद्य चम्पूरामायणस्य बालकाण्डे त्रयस्त्रिंशः पाठः आगस्ट् मासस्य सप्तविंशः दिनाङ्कः मङ्गलं कुर्मः कोऽपि कर्तुमिच्छति
धन्यवादः।
गतवर्गे गङ्गावतरणस्य प्रसङ्गं दृष्टवन्तः। परमेश्वरस्य कपर्दे संलग्ना गङ्गा बहिः निर्गमम् अप्राप्य दधौ दूर्वाशिखालग्नतुषारकणिकोपमाम् लघु बिन्दुः इव तस्याः गङ्गायाः स्थितिः आसीत्। लघुहिमबिन्दुः इव इति ततः गङ्गाम् अदृष्ट्वा चिन्तितः भगीरथः पुनरपि परमेश्वरं तोषयितुं प्रयतते। तेन स्तुत्या प्रसन्नेन न्यपतद्धरमूर्धनि क्षिप्ता तेन स्तुत्या प्रसन्नेन परमेश्वरेण क्षिप्ता गङ्गा हिमालयपर्वते पतति, यत्र सा सप्तधारारूपेण विभक्ता भवति। यासु तिस्रः नद्यः पूर्वां दिशं प्रति प्रावहन्, तिस्रश्च पश्चिमां दिशम् उद्दिश्य प्रावहन्। सप्तमी धारा गङ्गायाः भगीरथम् अनुसृत्य भागीरथी इति ख्याता अभवत्। सा भगीरथम् अनुगत्य गच्छति, यत्र मध्ये मार्गं महर्षेः जह्नोः यज्ञमाटः भवति। सः यज्ञमाटः गङ्गाजलेन आप्लावितः अहङ्कारेण, तत् ज्ञात्वा जह्नुः गङ्गां सम्पीय पुनरपि श्रोत्रमार्गेण विसृजति, येन सा जाह्नवी इति प्रख्याता भवति। तया जाह्नव्या प्रापयन् त्रिदिवं पितॄन्। भगीरथः तां पातालं नीत्वा पितॄणां सागराणां सद्गतिं प्रापय्य स्वयमपि सफलः नगरीं प्रति निवर्तते इत्येतावत् दृष्टवन्तः। अत्र कस्यचित् प्रश्नः अस्ति, तत्र गङ्गायाः धारासु तिस्रः पूर्वां दिशं गताः, तिस्रः पश्चिमाम् इति, अद्यतननदीभिः सह तासां सम्बन्धः दृश्यते वा इति। वस्तुतः इतोपि किञ्चित् विचारणीयं। मया यदा गतवर्गस्य सिद्धता क्रियमाणा आसीत् तदा अत्र गङ्गायाः सप्तधाराः इति सामान्यतः अपि उच्यते, किन्तु तासां नामानि भिन्नानि सन्ति, अलकनन्दा इत्यादि वदन्ति। अतः अद्यतननदीभिः तत्र वाल्मीकिरामायणे यानि नामानि दृश्यन्ते तासां परस्परसम्बन्धविषये द्रष्टव्यं। ममापि अत्र स्पष्टता नास्ति, यदि कोऽपि जानाति कृपया वदतु, नो चेत् पश्यामः यदा यथावकाशम्। एतद्विषये चिन्तनीयं भवति। अग्रे सरामः। बहुकालं यावत् रामायणस्य मूलकथायाः बहिरागताः, आदौ कुमारसम्भवं दृष्टं, ततश्च गङ्गावतरणम्। इदानीं पुनः इतोपि सन्ति, मध्ये अहल्यायाः प्रसङ्गः आरभ्यते। एकं क्षणं, we'll continue in just one moment please. अधुना कश्चित् गद्यभागः अस्ति अथ दाशरथिराकर्णितभागीरथी कथस्तां सरितं विलङ्घ्य विशालां विलोक्यपुरीं कस्येयमिति गाधिनन्दनमपृच्छत् अथ दाशरथिः आकर्णितभागीरथी कथः तां सरितं विलङ्घ्य विशालां विलोक्य पुरीं कस्य इयम् इति गाधिनन्दनम् अपृच्छत् अथ तदनन्तरम् अर्थात् गङ्गायाः कथां विश्वामित्रः कथयति ततः दाशरथिः श्रीरामः आकर्णितभागीरथी कथः आकर्णितं श्रुतं किं श्रुतं भागीरथी कथा श्रुता भागीरथ्याः कथा आकर्णिता येन सह आकर्णितभागीरथी कथः श्रुतगङ्गाप्रसङ्गः गङ्गावतरणस्य कथां श्रुत्वा तां सरितम् वस्तुतः गङ्गानद्याः तीरे एव विश्वामित्रः एतां कथां कथयति तत्र श्रुत्वा तां सरितं तां नदीं गङ्गानदीं विलङ्घ्य संसीर्य विशालां विलोक्य पुरीं विशालां विशाला इति नामधेयं कस्याश्चित् पुर्याः नगर्याः सो विशाला नगरीं विलोक्य दृष्ट्वा कस्य इयम् एषा नगरी कस्य राज्ञः इति गाधिनन्दनं विश्वामित्रम् अपृच्छत् पृष्टवान् श्रीरामः गङ्गायाः कथां श्रुत्वा तां नदीं सन्तीर्य विशालानाम्नीं नगरीं प्राप्य तस्याः विषये ज्ञातुं विश्वामित्रं पृष्टवान् So having listened to the story of Ganga, they cross Ganga and come to a city called Vishala. So, Rama wants to know about the city, so Vishwamitra narrates a tale. आकर्णित भागीरथी कथा भागीरथ्याः कथा भागीरथी कथा आकर्णिता भागीरथी कथा येन सह आकर्णित भागीरथी कथः पुल्लिङ्गशब्दः विलङ्घ्य वि इति उपसर्गः लघिगतौ इति धातुः ल्यबन्तम् अव्ययम् विलङ्घ्य विशालां विलोक्यपुरीं कस्येयमिति गाधिनन्दनम् अपृच्छत् प्रच्छ दीप्स्यायाम् इति धातुः लङ्लकारे प्रथमपुरुषे एकवचनम् अपृच्छत् अपृच्छताम् अपृच्छन् अथ दाशरथिराकर्णितभागीरथी कथः तां सरितं विलङ्घ्य विशालां विलोक्यपुरीं कस्य इयम् इति गाधिनन्दनम् अपृच्छत् सोऽप्येवम् अमोचत् सः अपि एवम् अवोचत् सो सः विश्वामित्रः अपि एवम् इत्थम् अवोचत् अकथयत् सो विश्वामित्रः एवं वदति सो अवोचत् इति वच धातोः लुङ् लकारः अथवा ब्रू धातोः लुङ् लकारः ब्रुवो वचिः इति वचादेशः भवति लुङ्लकारे प्रथमपुरुषे एकवचनम् अवोचत् किम् अवोचत् विश्वामित्रः पुरा खलु सुरासुराणां सुधानिमित्तं मिथो विरोधे प्रवृत्ते मायां विश्वमोहिनीं विश्वरूपः प्रदर्श्य दैतेयनिधनं शतधारपाणिना कारयामास पुरा खलु सुर असुराणां सुरासुराणां सुधानिमित्तं मिथः विरोधे प्रवृत्ते मायां विश्वमोहिनीं विश्वरूपः प्रदर्श्य दैतेय निधनं शतधार पाणिना कारयामास विश्वामित्रः कथां वदति पुरा खलु पुरा प्राक्काले बहोः कालात् पूर्वं सुरासुराणां सुराणां அசுராணாம் தேவானாம் தானவானாம் ச சுதா நிமித்தம். சுதா இத்யுக்தி அமிர்தம். சோ அமிர்தஸ்ய நிமித்தம் காரணேன அமிர்தம் பிராப்தும் சமுத்திரமதன காலே அமிர்த பிராப்தியர்த்தம் சுராசுராணாம் மிதோ விரோதே பிரவிருத்தே. மிதஹ நாம பரஸ்பரம், விரோதஹ கலஹஹ அதவா யுத்தம். சோ விரோதே பிரவிருத்தே சதி சஞ்சாதே சதி. சோ வென் த தேவாஸ் அண்ட் அசுரஸ் வேர் ஃபைட்டிங் வித் ஈச் அதர் ஃபார் கெட்டிங் அம்ருத. மிதோ விரோதே பிரவிருத்தே மாயாம் விஸ்வமோகினீம் விஸ்வரூபஹ பிரதர்ஷ்ய. மாயாம் இந்திரஜால கிரியாம். சோ மாயா இஸ் மேஜிக் தட் விச் கன்ஃபவுண்ட்ஸ் அதர்ஸ் இஸ் மாயா. இந்திரஜாலம் உச்சியது. சோ கீதிருஷி சா மாயா விஸ்வமோகினீம் சமஸ்தம் விஸ்வம் பிரபஞ்சமேவ மோஹயதி. சோ தட் விச் டிசீவ்ஸ் த என்டயர் வேர்ல்ட். சோ ஜகன்மோகாரிணீம் மாயா அத்தைவ மோகினி இத்தனேன மோகினி ரூபம் அப்படி கதயதி. சோ யதா விஷ்ணு மோகினி ரூபேண அவகீரிய இத்யர்த்தஹ மாயாம் விஸ்வமோகினீம் விஸ்வரூபஹ. விஸ்வரூபஹ மகாவிஷ்ணு பிரதர்ஷ்ய தர்ஷயித்வா அதஹ ஸ்திரீ ரூபதாரணேன சமஸ்தம் பிரபஞ்சம் மோஹயிதும் ஸ்வஸ்ய மாயாம் பிரதர்ஷிதவான் விஷ்ணு. சோ தாதிருஷம் பிரதர்ஷ்ய சததார பாணினா. சததார பாணிஹி சததாரம் நாம வஜ்ராயுதம். சதம் தாராஹ யஸ்ய. சோ தட் விச் ஹாஸ் 100 தாரா இஸ் what you call 100 corners or you know diamond. So when you cut a diamond, a very well cut diamond has several corners. So the more number of dhara, the better it is. So the vajrayudha is called shatadhara. So shatadhara panihi indraha. So vajrayudha dharena indrena daiteya nidhanam. Daiteyaha திதேஹே அபத்யானி தைதேயாஹ அசுராஹ. சோ அசுராணாம் நிதனம் விநாசம் காரயாமாச காரிதவான். சோ விஷ்ணு ஸ்வயம் மோகினி ரூபம் த்ருத்வா அசுரான் வஞ்சயித்வா தேவேப்யஹ அமிர்தம் விபீர்ய ததஹ ப்ரவ்ருத்தே யுத்தே இந்திரேண அசுராணாம் விநாசம் காரிதவான். ஏதது சமுத்திரமதனஸ்ய கதா சர்வைஹி ஜ்ஞாயதே சங்கிப்ததையா உச்சியதே அத்ர. சோ தாத்பர்யம் ப்ராக்காலே சமுத்திரமதன சமயே அமிர்த பிராப்தயே தேவாசுராணாம் பரஸ்பரம் கலஹே சஞ்சாதே மோகினி ரூபம் த்ருத்வா விஷ்ணு தேவேப்யஹ அமிர்தம் பிராபய்ய ததஹ ப்ரவிருத்தே யுத்தே தேவேந்திரஸ்ய ஜயம் பிராபிதவான். சோ ஜூரிங் சமுத்திரமதன வென் த அசுராஸ் அண்ட் தேவாஸ் வேர் ஃபைட்டிங் ஃபார் நெக்டர் Vishnu came down in the form of Mohini. So his Maya, which deceived the entire world, so he helped the Devas get Amrita, and he, of course that helped them to conquer the Asuras, and Indra destroyed the Asuras ityarthah. So atra surasuranam surascha asurascha surasuraha இது சாமான்யதா சமாசஹ உச்சதே த்வந்த்வ சமாசஹ. கிந்து அத்ர கச்சித் க்லேஷஹ அஸ்தி. தத்ர த்வந்த்வ சமாசே த்வந்த்வ சமாசஹ த்விவிதஹ இதரேதர த்வந்த்வஹ சமாஹார த்வந்த்வஹ. சோ சமாஹார த்வந்த்வஹ சமாஹாரஹ இத்யுக்தே சமூஹஹ. தத்ர ஏகவசனம் பவதி. யத்ர சமூஹஹ விவக்ஷிதஹ தத்ர த்வந்த்வ சமாசே ஏகவசனம் நபும்சகலிங்கம் பவதி. யத்ர து ப்ருதக் ப்ருதக் வ்யக்தயஹ ஏவ உத்திஷ்டாஹ தத்ர இதரேதர த்வந்த்வஹ பவதி. சாமான்யதஹ சர்வத்ர இதரேதர த்வந்த்வஹ வா சமாஹார த்வந்த்வஹ வா பவிதும் அர்ஹதி. கிந்து केषुचित् प्रसङ्गेषु समाहारद्वन्द्वः एव भवति इति सूत्राणि सन्ति. सो देर् आर् रूल्स् विच् से दट् समाहारद्वन्द्व इस् कम्पल्सरि फार् सम् केसस्. यथा प्राण्यङ्गानां सर्वदा समाहारः, पाणी च पादौ च पाणिपादम् इति भवति. सो द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इति सूत्रमस्ति. प्राणिनाम् अङ्गानां समासः यत्र भवति तत्र समाहारद्वन्द्वः. एवमेव सेनाङ्गानां रथिकाश्च अश्वारोहाश्च रथिकाश्वारोहम् इति भवति. सो तत्रैव एकः नियमः अस्ति, येषां च विरोधः शाश्वतिकः. सो येषां परस्परं विरोधः शाश्वतिकः भवति. सो दोस् हू हाव् अ पर्मनेण्ट् एनिमिटि बिट्वीन् देम्, सो तेषां द्वन्द्वः समाहारः एव इति नियमः. यथा काकोलूकम्, काकाश्च उलूकाश्च, क्रोस् अण्ड् औल्स्. सो सर्वदा परस्परं विरोधः, अतः काकोलूकम् इति समाहारद्वन्द्वः भवति. एवमेव अहिनकुलम्, अहिश्च नकुलश्च, सर्पेण्ट् अण्ड् मङ्गूस्. सो अहिनकुलं, गोव्याघ्रम् इत्यादि उच्यते. अत्र सुराः असुराश्च सर्वदा विरोधिनः किल, कथं सुरासुराणाम् इति बहुवचनप्रयोगः, अत्र समाहारद्वन्द्वः भवेत् किल इति प्रश्नः उदेति. कथं सुराश्च असुराश्च, तेषां विरोधः अपि शाश्वतिकः, कथम् अत्र द्वन्द्वसमासः इति प्रश्नः. तत्र समाधानं द्वेधा उच्यते. एकं काकोलूकम्, अहिनकुलम् इत्यादिषु नैसर्गिकः विरोधः, सः प्रकृत्या भवति, जन्मनः मरणपर्यन्तमपि भवति. किन्तु सुरासुराणां विरोधः तथा न, कार्यं स्वभावम् आश्रित्य भवति. यथा समुद्रमथन प्रसङ्गे एव सुरासुराः मिलित्वा एव किल समुद्रमथनं कृतवन्तः. यद्यपि सामान्यतः विरोधिनः, कार्यमाश्रित्य सः विरोधः, न तु स्वाभाविकः अथवा नैसर्गिकः विरोधः न. अतः इतरेतरद्वन्द्वः कर्तुं शक्यते इति केचन वदन्ति. तदा सुराश्च असुराश्च सुरासुराः इति द्वन्द्वसमासः वक्तुं शक्यते. केषाञ्चिन्मते द्वन्द्वसमासः न भवति. तदा द्वन्द्वसमासः भवति चेत् समाहारः भवति, इतरेतरद्वन्द्वः न भवति. तदा किं वक्तव्यम्? सुरैः सङ्गताः असुराः, सुरासुराः इति कर्मधारयसमासः अपि वक्तुं शक्यते. मयूरव्यंसकादिः इति समासः अस्ति. सो इट् इस् अ कलेक्षन् आफ् सच् मिसलेनियस् समासस् विच् डोण्ट् हेपन् आर् विच् वी केनाट् डिरैव् थ्रू नार्मल् मीन्स्. सो तत्र मयूरव्यंसकादिषु अन्तर्भाव्य कर्मधारयसमासः अपि वक्तुं शक्यते. सुरैः सङ्गताः असुराः, सुरासुराः इति यथा लोपः भवति तथा. एवं सुरासुराणाम् इति अत्र कश्चित् प्रश्नः. ईदृशः द्वन्द्वः सर्वदा बहुवचने अस्ति वा? कीदृशः द्वन्द्वः? इतरेतरद्वन्द्वस्य वचनानि भवन्ति, द्विवचनं वा बहुवचनं वा. यथा रामलक्ष्मणौ, रामलक्ष्मणभरतशत्रुघ्नाः इति. समाहारद्वन्द्वः सर्वदा एकवचने एव भवति. कर्मधारयसमासः सर्वेषु वचनेषु भवितुम् अर्हति, तत्र क्लेशः नास्ति. इतरेतरद्वन्द्वः वक्तव्यः. सुराश्च असुराश्च सुरासुराः इत्युक्ते इतरेतरद्वन्द्वः, अथवा सुरैः सङ्गताः असुराः इत्युक्ते कर्मधारयसमासः. दैतेयनिधनम्, दितेः अपत्यानि पुमांसः दैतेयाः. दिति इत्यस्मात् धक् प्रत्यये दैतेय इति भवति. दैतेयानां निधनम्, असुरा दैत्य दैतेय धनुजेन्द्रारि दानवाः इत्यमरकोशे अस्ति. दैत्यः दैतेयः उभयमपि दिति इत्यस्मादेव प्राप्तम्। धनुजः दानवः इत्येतत्तु धनु इति अपरा पत्नी कश्यपमहर्षेः, देवाः असुराः सर्वेपि कश्यपस्य पुत्राः। तस्य अदितिः एका पत्नी, अदितेः पुत्राः आदित्याः देवाः, दितेः पुत्राः धनोः पुत्राश्च असुराः। सो दैत्य दैतेय धनुज इन्द्रारि दानवाः। सो यद्यपि वस्तुतः भेदः अस्ति, दितेः पुत्राः दैत्याः, धनोः पुत्राः दानवाः, तथापि पर्यायत्वेन प्रयोगः दृश्यते। सो टेक्निकली दे आर् डिफरेण्ट्, ऐ मीन् ओरिजिन्स् आर् डिफरेण्ट्, बट् नार्मली दे आर् यूस्ड् एज् सिनोनिम्स् फार् असुरा। शतधार पाणिना, शतं धाराः अस्य इति शतधारं वज्रम्। सो शतधारं पाणौ यस्य सः, शतधारपाणिः इन्द्रः तेन। सो इकारान्तः पुल्लिङ्गः तृतीया विभक्तौ एकवचनम्। कारयामास, दुक्रुञ् करणे धातोः, निजन्तात् लिट्लकारे प्रथमपुरुषे एकवचनान्तं रूपं कारयामास। पुरा खलु सुरासुराणां सुधानिमित्तं मिथो विरोधे प्रवृत्ते, मायां विश्वमोहिनीं विश्वरूपः प्रदर्श्य दैतेयनिधनं शतधारपाणिना कारयामास। तेषां जननी दितिः अतिवेलमन्युः, शतमन्युशासनं कमपि पुत्रं लब्धुकामा, पत्युः मारीचस्य वचनात् कुशप्लवे सुचिरं तपश्चचार। तेषां जननी दितिः अतिवेलमन्युः, शतमन्युशासनं कमपि पुत्रं लब्धुकामा, पत्युः मारीचस्य वचनात् कुशप्लवे सुचिरं तपः चचार। तेषां दैतेयानां, दैतेयनिधनं कारयामास। सो तेषां दैत्यानां जननी माता का दितिः, दिति नाम्नी कश्यपपत्नी। अतिवेलमन्युः, मन्युः क्रोधः। सो अत्यन्तं क्रुद्धा, पुत्राणां निधनेन अत्यन्तं कुपिता। शतमन्युशासनं कमपि पुत्रं लब्धुकामा, शतमन्युः इन्द्रः, शतमन्योः शासनः, इन्द्रघातिनम्, इन्द्रं मारयितुं कमपि पुत्रं, कमपि नाम अत्यन्तं बलवन्तं पुत्रं तनयं लब्धुकामा सति, प्राप्तुम् इच्छन्ति। सो पुत्राणां निधनम् इन्द्रः कृतवान्, अतः कुपितादितिः इन्द्रं मारयितुं कमपि पुत्रं प्राप्तुमिच्छन्ति। पत्युः भर्तुः मारीचस्य, मारीचः नाम कश्यपः, मरीचेः पुत्रः, मरीचिः इति प्रजापतिः, तस्य पुत्रः कश्यपः। सो तस्य कश्यपस्य वचनात् आदेशात् सा पतिं प्रार्थितवती एतादृशं पुत्रं प्राप्तुमिच्छामि इति। सो तस्य वचनात्, पत्युः मारीचस्य वचनात् कुशप्लवे, कुशप्लवनामके तपोवने, रामः विशालानगर्याः विषये पृष्टवान्। सा विशालानगरी अधुना यत्र विद्यते तत्स्थले एव तत् तपोवनं, पूर्वं तत् दित्याः तपोवनम् आसीत्, कुशप्लवनामकं तपोवनम्। सो कुशप्लवनामके तपोवने सुचिरं नाम बहुकालं तपश्चचार, तपश्चर्यां कृतवती। सो पुत्राणां मारणेन क्रुद्धा दितिः इन्द्रघातिनं बलवन्तं पुत्रम् अपेक्ष्य भर्तुः कश्यपस्य आदेशानुगुणं कुशप्लवनामके तपोवने बहुकालं तपः कृतवती। सो दिति वास् एक्स्ट्रीम्लि आङ्ग्रि बिकास् आफ् द स्लाटर् आफ् हर् सन् बै इन्द्र। सो शी वाण्टेड् टु हाव् अ सन् हू कुड् डिस्ट्राय् इन्द्र। फार् दट् अकार्डिङ्ग् टु द वर्ड्स् आफ् हर् हस्बेण्ड् कश्यप, शी पर्फार्म् पेनन्स् फार् अ लाङ्ग् टैम् इन् दट् क्षेत्र, द क्षेत्र वेर् Currently, the Vishala city stands. It was known as Kushaplava. So, tatra bahukalam tapah kritavati. So, ati vela manyuhu. Ati vela. Vela, it took a seema. So, the boundary is called vela. Especially the boundary of the ocean is called vela. So, velam atikrantaha ativelaha. That which has crossed its limits. That which has crossed the boundary. Ityarthaha. Ativelaha manyuhu kopaha krodhaha yasyaha sa ativela manyuhu. Ukarantaha strilingaha prathama vibhaktau ekavachanam. Shatamanyu shasanam. Shatam manyavaha yasya saha. Atrapi manyu asti kintu atra manyu shabdasya yajnaha ityarthaha. So shatakratuhu, shatamanyuhu ityadi indrasya namana. So shatam manyavaha yasya saha. Shatamanyuhu shasanaha tam shatamanyu shasanam. So manyuhu dainye kratau krudhi ityamarakoshaha. So nanarthakaha shabdaha, manyu shabdaha, dainye, dainyam nama shokaha, kratau, kratuhu, yajnaha, krudhi, krud nama, krodhaha, kopaha. So eteshu sarveshu artheshu asti. So yatra ativela manyuho ityachyate, tatra krodhaha ityarthaha, shatamanyu shasanam ityatratu, kratuhu ityarthaha, prasangam ashritya arthaha nyatavyaha. Labdhu kama, labdhum kamaha yasyaha sa labdhu kama. Tum kama manaso rapi iti tumun pratyayantasya makarasya lopaha bhavati labdhu kama, praptu kama, maraitu kama ityadi bhavati. Marichasya, marichehe apatyam puman marichaha, marichi shabdat anna pratyayaha. Kushaplave suchiram tapashtachara. So tesham janani ditihi ativela manyuhu shatamanya shasanam kamapi putram labdhukama patyuhu marichasya vachanat kushaplave suchiram tapashtachara. How is the samasam for daitya? Putra Putra samasasya vishaye prichyate. Mahadevam.
Daitya, daitya, for both the Yogi Vigrabhasam as Vitehe Apatyanikamamsaha.
Yes, yes. Both are tadhitas, two different tadhita pratyayas.
Oh.
One is anya pratyaya, ditya, ditya, aditya, patyuttara padanyaha. And the other is that two different tadhita pratyayas. Oh, sorry. Let me say. Two different Advaita prayers in the same meaning.
Okay, thanks.
It happens with Aditi also. There is Aditya and Aditeya. Adityaha ityapi bhavati, Aditeyaha ityapi bhavati. Evam daityaha daiteyaha. Sarvatra na bhavati, vishishta naam shabda naam bhavati. Agre, tachyamaha. So, ditihi tapaha karoti. Tam taitavena shushushamana shatadharapanihi padakalita kachakalapam apannanidram apavitreti nirvarnya avagahita tadiya jasharas saptadha garbhan nirbhidya nirjagama. Tam kaitavena shushushamana shatadharapanihi Pada kalita kacha kalapam apanna nidram apavitra iti nirvarnya avagahita tadiya jatharaha saptadha garbham nirbhidya nirjagama. So, tam nama tapascharantim ditim kaitavena kaitavam nama kapataha. So, kapatena shushrushamanah, sevamanah, kaha, shatadharapanihi, indraha. इन्द्रः अस्मिन् विषये ज्ञातवान् दितिः आत्मानं मारयितुं पुत्रं प्राप्तुम् इच्छति इति विज्ञाय कपटेन तस्य समीपं प्राप्य तां सेवमानः इन्द्रः तो कदा अवकाशः लभ्यते इति सः प्रतीक्षमाणः आसीत् कदाचित् पादकलितकचकलापाम् तो पादस्थाने शय्यायां पादस्थाने कचकलाप कचः नाम केशाः केशानां कलापः नाम शिरः सो शय्यायां शिरोभागः भवति पादस्य भागः भवति तत्र पादस्थाने शिरः संस्थाप्य सो परावृत्य सो यत्र पादः भवेत् तत्र शिरः यत्र शिरः भवेत् तत्र पादः एवं पादस्थाने निक्षिप्तमस्तकाम् आपन्ननिद्रां प्राप्तस्वापाम् सो दितिः सा तपः कृत्वा गर्भं वहति इदानीं पुत्रं प्राप्तुं कदाचित् सा निद्रां कृतवती कथम् एवं वैपरीत्येन इदञ्च शास्त्रेषु निषिद्धं पादस्थाने शिरसः स्थापनम् अतः पादकलितकचकलापाम् आपन्ननिद्राम् अपवित्रा इति निर्वर्ण्य तद्दृष्ट्वा यत्र पादः भवति तत्र शिरः स्थाप्यते अतः तस्मिन् समये सा अशुचिः इति निर्वर्ण्य विलोक्य अवगाहित तदीय जठरः सो अवगाहितं नाम प्रविष्टं किं प्रविष्टं तस्याः जठरम् उदरं प्रविश्य सो इन्द्रः कपटेन तां सेवमानः अवकाशं निरीक्षमाणः आसीत् कदाचित् तस्याः एवं पादस्थाने शिरः संस्थाप्य सुप्तां दृष्ट्वा सा अपवित्रा इति विज्ञाय तस्मिन् समये तस्याः गर्भं प्रविश्य गर्भं पिण्डम् अन्तः विद्यमानं सप्तधा निर्भिद्य सप्तधा सप्तभिः प्रकारैः निर्भिद्य विदार्य निर्जगाम निर्गतः सो हि एण्टर्ड् हर् वूम्ब् वैल् शी वास् स्लीपिङ्ग् एण्ड् हि कट् दट् एम्ब्रियो इन् टु 7 एण्ड् हि लेफ्ट् सो आपन्नसत्त्वां दितिं कपटेन सेवमानः इन्द्रः कदाचित् शय्यायां पादस्थाने शिरो निधाय सुप्ताम् ताम् अशुचिः इति वीक्ष्य तस्याः उदरं प्रविश्य पिण्डं सप्तधा विदार्य निर्गतः कैतवेन कैतवम् अकारान्तः नपुंसकलिङ्गः तृतीया विभक्तौ एकवचनम् कपटोस्त्री व्याजदम्भोपधयश्चद्म कैतवे इति अमरकोशः सो कपटः व्याजः दम्भः छद्मं कैतवम् इति सर्वं समानम् छद्म कैतवम् शुश्रूषमाणः वस्तुतः इदं पदं श्रवणे धातोः निष्पन्नम् यथा पातुमिच्छा पिपासा कर्तुमिच्छा चिकीर्षा एवं श्रोतुम् इच्छा शुश्रूषा इति पदस्य निष्पत्तिः किन्तु शुश्रूषा शब्दः सेवा इत्यर्थे रूढः सो इवन् दो इट् इस् डिरैव्ड् एज् अ डिसैर् टु हियर् आर् लिसन् टु इत्यर्थः किन्तु सेवा इत्यर्थे शुश्रूषा शब्दः रूढः शानच् प्रत्ययः सो शुश्रूषमाणः शतधारपाणिः दृष्टः शतधारं पाणौ यस्य सः पादकलितकचकलापाम् पादे कलितः पादकलितः कचस्य कलापः कचकलापः कचः नाम केशः केशानां कलापः सो एन् अरेञ्ज्मेण्ट् आफ् हेर् सो यु इदर् प्लेट् इट् आर् यु ट्विस्ट् इट् इन् टु अ बन् एण्ड् सो आन् सो दट् इस् काल्ड् कलाप सो पादकलितकचकलापाम् सो पादकलितः कचकलापः यस्याः सा पादकलितकचकलापाम् आपन्ननिद्राम् आपन्ना निद्राम् आपन्ननिद्राम् nirvarnya, nirvarnya ityasya drishtva ityarthah, nir iti upasargah, varna dhatuhu, varna kriya vistara gunavachaneshu iti dhatuhu, lyabantam avyayam nirvarnya, avagahita tadiya jatharah. So, avagahita tasyah idam tadiyam. So, tadhita pratyayah. Mama idam madiyam. Tava idam tvadiyam. Bhavataha idam bhavadiyam. Tasyah idam tadiyam. Tadiyam jatharam. Tadiya jatharam. Avagahitam tadiya jatharam. Yena saha. Avagahita tadiya jatharah. Nirbhidya. Nir upasargaha bhidir vidarane dhatuhu lyabantam avyayam nirbhidya nirjagama. Tam kaitavena shushrushamanaha shatadharapanihi pada kalita kachakalapam apanna nidram apavitreti nirvarnya avagahita tadiya jatharaha saptadha garbham nirbhidya nirjagama. Dithirapi vidita tanaya vrittanta tanyapi khandahi akhandalena sapta marutaha karayitva trivishtapam pravishta. Dithihi api vidita tanaya vrittanta tani api khandani akhandalena sapta marutaha karayitva trivishtapam pravishta. Tetap purvam kastana prashnaha shamyatam tatra avagahita tadhiya jatharah ityatra gah dhatu avagahita gah iti dhatu. So gadham arthah gahu gahate pravishati ityarthah dhatu paathe kah arthah dattah iti drashtavyam. So avagahita tadiya jatharah. So ditihi api vidita tanaya vrittanta. So ditihi vidita tanaya vrittanta. Tanayana nama putrasya sa indram maraitum ekam putram ishtavati kinto idanim garbhaha saptadaha vibhaktaha. So garbhasya bhedanam jnatva indraha nirgataha taranantaram eva sa jnatavati. So kim karaniyam iti cintitam saya tasyah kopaha etavata shantaha idanim yad balamasi tattu saptasu bhageshu vibhaktam ataha indrasya jayaha na shakyate iti vijnaya tani khandani khandani garbhasya shakalani. So the seven pieces of the embryo akhandalena indrena punaha indrameva ahuya mata kila matrasthane asti indrasya pita kashyapaha tasya patni ataha indrameva ajnyapya sapta marutaha karayitva. So tesham saptanam api devatatvameva prapitavati astu yadyapi indrasya parajayaha na shakyate tasya putrahava amaratvam prapnuvantu iti sapta marutaha marut vatabhimani devataha vayuhu vayudevaha ityuchyate intu marutaha api santi bhinna pradesheshu vayoho abhimani devata iti uchyante marutaha ataha sapta marutaha karayitva vidhapya indrena tani sapta khandani sapta marudevata rupena parivartya trivishtapam pravishta sa svargam praptavati. So indrasya gamananantaram ditihi garbhasya vichedanam vijnaya kopam santyajya indradvara garbhashakalani vatabhimani marudevataha karayitva svayam svargam pravishta. Vidita tanaya vrittanta tanayasya vrittantaha tanaya vrittantaha viditaha tanaya vrittantaha yaya sa akhandalena akhandalaha sahasrakshah ribhukshas tasketu priya iti amarakoshe akhandalaha indraha. So indrena सप्त मरुतः. सो तत्र कुत्रचित् पुराणेषु दृश्यन्ते सप्त मरुतां नामानि. आवहः प्रवहश्चैव संवहश्चोद्वः तथा विवहाख्यः परिवहः परावह इति क्रमात्. सो आवह प्रवह संवह उद्वह विवह परिवह परावह इति सप्तमरुतः. कुत्र कुत्र इत्यपि दीयते. सप्तैते मारुतस्कन्धाः महर्षिभिरुदाहृताः. आवहो वर्तयेत् वायुम् मेघोल्का वृष्टिविद्युतः. सो एषः आवहः मेघेषु उल्कासु वृष्टौ विद्युति च वायुं वर्तयति. तत्र तेषां व्यापारार्थं यः वायुः अपेक्षितः तं वायुं वर्तयति, नाम तस्य वायोः अभिमानिदेवता आवहः. एवं प्रवहश्चाथ तथा मार्ताण्डमण्डलम्. मार्ताण्डः सूर्यः. सूर्यमण्डले विद्यमानस्य वायोः अभिमानिदेवता प्रवहः. वर्तयेदुद्वहश्चाथ तथा नक्षत्रमण्डलम्. नक्षत्रमण्डले उद्वहः. संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम्. शीतांशुः चन्द्रः. चन्द्रमण्डले संवहः. पञ्चमो विवहाख्यस्तु तथैव ग्रहमण्डलम्. ग्रहमण्डले विवहः. सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा. परावहस्तथा वायुः वर्तये ध्रुवमण्डलम् इत्येवं सप्त मरुद्देवताः उच्यन्ते. केनचित् उच्यते इन्द्रस्य मरुत्वान् इत्यपि नाम उच्यते. इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः इति. अनेन कारणेनैव स्यात् द्रष्टव्यं शब्दस्य निष्पत्तिः मरुत्वान् इति. किन्तु एतेनैव भवितुमर्हति. तत्र तस्य शत्रुः यः आसीत् कैटवेन विदार्य स्वस्य पक्षे एव आनीतवान् इन्द्रः मरुद्रूपेण. सो दितिरपि विदिततनयवृत्तान्ता तान्यपि खण्डान् याखण्डलेन सप्त मरुतः कारयित्वा त्रिविष्टपं प्रविष्टा. अग्रे श्लोकः अनुवक्तुमिच्छन्ति.
कश्चिन्महीपतिः
विशालेति स्वनाम्नात्र विशालां विदधे पुरीम्
अलं छाया इक्ष्वाकोः जातः कश्चिन् महीपतिः. विशालेति स्वप्नाला
इति
विशाखा इति स्वप्नाम् विशाला का विशाला इति स्वनाम् अत्र विशालां विदते पुरी.
सम्यक्. अलम्बुसायाम् इक्ष्वाकोः जातः कश्चित् महीपतिः विशाला इति स्वनाम्ना अत्र विशालां विदधे पुरीम्. सो ततः इति पूर्वमुच्यते, नाम दितेः स्वर्गप्रवेशानन्तरं विदधे चकार अथवा निर्मितवान् काम विदधे पुरीम नगरीम कीदृशीम पुरीम विशालाम विस्तृताम सो अ वेरी बिग और अ ह्यूज सिटी स्वनामना अंकिताम सो केन पुरीम स्वनामना सो स्वस्य नामधेयेन विख्याताम सो देयर वाज अ किंग हु बिल्ट द सिटी इन हिज ओन नेम सो तस्य नाम विशालः इति तस्य नृपस्य नाम सो स्वनामना स्वस्यैव नामना विख्याताम विशाला इति स्वनामना पुरीं विदधे सो द सिटी इज विशाला ही वाज कॉल्ड विशालः सो स्वनामना विशाला इति विख्याताम विशालां पुरीं विदधे सो एकत्र विशाला इति नामधेयम् द्वितीयत्र विशेषणम् सो विशाला इति नाम पुरी अपि विशाला एव सो कुत्र विदधे अत्र अत्र दितेः तपोभूमौ यत्र दितिः तपश्चचार सो तस्मिन् तपोवने सः एकां नगरीं निर्ममे कः सः कश्चिन् महीपतिः नृपः विशालनामकः नृपः कश्च सः कीदृशः महीपतिः जातः उद्भूतः बोर्न् कस्मात् जातः इक्ष्वाकोः सो रामस्य पूर्वजः इक्ष्वाकुः सो इक्ष्वाकुमहाराजात् कस्यां जातः अलम्बुसायां सो अलम्बुसा इति इक्ष्वाकोः पत्नी सो इक्ष्वाकोः पुत्रः विशालः विशाला नाम्नीं नगरीं निर्मितवान् इति विश्वामित्रः कथां कथयति इक्ष्वाकोः अलम्बुसायां जातः कश्चिन् महीपतिः अत्र स्वनाम्ना विशाला इति विशालां पुरीं विदधे सुदितेः स्वर्गप्रवेशानन्तरं तस्याः तपोभूमौ इक्ष्वाकु अलम्बुसयोः पुत्रः विशालनामकः महाराजः स्वस्य नाम्ना अङ्किताम् विशालानाम्नीं विस्तृताम् नगरीं निर्मितवान् इक्ष्वाकोः इति उकारान्तः पुल्लिङ्गः पञ्चमी विभक्तौ एकवचनम् महीपतिः भूपतिः राजा इत्यर्थः मह्याः पतिः महीपतिः विदधे वि उपसर्गः दुधान्य धारणपोषणयोः इति धातोः आत्मनेपदे लिट्लकारे प्रथमपुरुषे एकवचनम् दधौ इति परस्मैपदरूपम् दधे इति आत्मनेपदम् रूपम् सो उभयपदी धातुः धा धातुः सो अलम्बुसायामिक्ष्वाकोर्जातः कश्चिन्महीपतिः विशालेति स्वनाम् नात्र विशालाम् विदधे पुरीम् तदनु तद्वास्तव्येन सुमतिनाम्ना नृपतिना कृतातिथ्यः स्वराजपुत्रो भगवान् विश्वामित्रः तत्र निशीथिनीम् नीत्वा मिथिलाम् प्रति प्रस्थितः प्रतपसाम् उत्तमस्य गौतमस्य आश्रमम् प्रदर्श्य तद्दारानुशक्ताम् कथामित्थमकथयत् तदनु तद्वास्तव्येन सुमति नाम्ना नृपतिना कृत आतिथ्यः कृतातिथ्यः स राजपुत्रः सराजपुत्रः भगवान् विश्वामित्रः तत्र निशीथिनीम् नीत्वा मिथिलाम् प्रति प्रस्थितः प्रतपसाम् उत्तमस्य गौतमस्य आश्रमम् प्रदर्श्य तद्दारानुशक्ताम् तत् दार अनुशक्ताम् तद्दारानुशक्ताम् कथाम् इत्थम् अकथयत् तदनु तदनन्तरम् विशालायाः समीपमागच्छन् एव विश्वामित्रः विशालायाः कथाम् कथितवान् सो तत्कथनानन्तरम् तद्वास्तव्येन सो तद्नाम विशाला सो विशाला नगरी निवासिना सुमतिनाम्ना नृपतिना सो सुमति नामधेयेन नृपतिना महाराजेन सो बहुपूर्वम् विशालः नगरीम् निर्मितवान् ततः तद्वंशीयाः तां पालयन्ति. सो अधुना राजा अस्ति सुमतिः. सो तेन नृपतिना कृतातिथ्यः, सो विहित उपचारः. सः ब्रह्मर्षिः विश्वामित्रः आगच्छति इति विज्ञाय स्वयम् आगत्य उपचारादिकं कृतवान्. सो सराजपुत्रः राजपुत्राभ्यां रामलक्ष्मणाभ्यां सहितः भगवान् पूज्यः विश्वामित्रः तत्र विशालानगर्यां निशेथिनीं नीत्वा, निशेथिनी रात्रिः, सो रात्रिं नीत्वा यापयित्वा, सो विश्वामित्र अलोङ्ग् वित् राम अण्ड् लक्ष्मण स्पेण्ट् द नैट् इन् विशाला. मिथिलां प्रति प्रस्थितः. सो वस्तुतः कुत्र सिद्धाश्रमे यज्ञं समाप्य मिथिलां गच्छन्तः मार्गे सन्ति, अतः मिथिलां प्रति प्रस्थितः, पुनः मिथिलानगरीम् उद्दिश्य प्रस्थितः. मध्ये पुनः यदा गच्छन्ति तत्र गौतमाश्रमः दृश्यते. अतः प्रतपसाम् उत्तमस्य प्रकृष्टं तपः यस्य सः प्रतपाः. सो प्रकृष्टतपस्विनाम् उत्तमः श्रेष्ठः. सो हि इस् द बेस्ट् अमङ्ग् ग्रेट् सेजस्. सो तादृशः गौतमः, गौतममहर्षेः आश्रमं तपोवनं प्रदर्श्य दर्शयित्वा. सो आन् द वे अगेन् हि शोड् राम अण्ड् लक्ष्मण द हर्मिटेज् आफ् गौतम, वन् अमङ्ग् द बेस्ट् सेजस्. तद्दारानुशक्तां कथां. सो तद्दाराः गौतमस्य पत्नी अहल्या. सो तस्याः अनुशक्तं नाम सम्बद्धम्. सो अहल्या सम्बद्धां कथां वृत्तान्तम् इत्थम् एवं प्रकारेण अकथयत्, अवर्णयत्. सो विशालानगरस्य महाराजेन सुमतिना विहितोपचारः विश्वामित्रः रामलक्ष्मणाभ्यां सह तत्रैव रात्रिं यापयामास. सो हि स्पेण्ट् द नैट् इन् विशाल. सो बीङ्ग् आनर्ड् बै द किङ्ग् आफ् विशाल हुव सुमति. सो परेद्युः प्रातः मिथिलां गच्छन् मार्गे मुनिश्रेष्ठस्य गौतमस्य तपोवनं दर्शयित्वा. सो द नेक्स्ट् डे प्रोसीडेड् आन् द वे टु मिथिला एण्ड् देर् दे सा गौतमस् हर्मिटेज्. सो तस्य पत्न्याः अहल्यायाः वृत्तान्तम् एवम् अवर्णयत्. नौ हि स्टार्ट्स् नरेटिङ्ग् द स्टोरी आफ् अहल्या. अत्र व्याकरणांशाः के सन्ति. कृतातिथ्यः कृतम् आतिथ्यं यस्य सः कृतातिथ्यः. निशीथिनी रात्रिः अमरकोशे अपि अस्ति. निशीथिनी निशा, निशीथिनी रात्रिः, रात्रिः इत्यर्थः. तावदेव अकथयत्. सो अद्य विशालानगर्याः विषये ज्ञातवन्तः. दितिः समुद्रमथने दैत्याः मारिताः इन्द्रेण. क्रुद्धा दितिः इन्द्रघातिनं पुत्रं प्राप्तुं तपश्चरति. इन्द्रः कपटेन तस्याः गर्भं सप्तधा भिनत्ति. ततः तानि सप्तखण्डानि एव सप्तमरुतः भवन्ति. तस्मिन् दितेः तपोवने विशालनामकः राजा विशालानगरीं निर्माति. सो विशालामतीत्य मिथिलामार्गे गौतमाश्रमे अहल्यावृत्तान्तस्य आरम्भः करिष्यते अग्रिमसप्ताहे. मङ्गलं कुर्मः. एनी क्वेश्चन्? लक्ष्मीं तनोतु नितरामितरानपेक्षमं हृद्वयं निगमशाखिशिखाप्रवालम् शैरम्बमं पुरुहडम्बरचौर्यनिघ्नं विघ्नाद्विभेदशतधारधुरन्धरं नः. धन्यवादः.